श्री गणेशाय नमः। श्रीमद्भागवत महापुराणम् प्रथमस्कन्धः अथ नवमोऽध्यायः। भीष्मस्तुति। सूत उवाच इति भीतः प्रजाद्रोहात् सर्वधर्मविवित्सया ततो विनशनं प्रागात् यत्र देवव्रतोपतत् तदा ते भ्रातरः सर्वे सदश्वै स्वर्णभूषितैः अन्वगच्छन् रथैर्विप्रा व्यासधौम्यादयस्तथा भगवानपि विप्रर्षे रथेन सधनैर्जयः सतैर्व्यरोचत नृपक् कुबेर इव गुह्यकैः दृष्ट्वा निपतितं भूमौ देवश्च्युतमिवामरम् प्रणेमुः पाण्डवा भीष्मं सानुगा सहचक्रिणा तत्र ब्रह्मर्षयः सर्वे देवर्षयश्च सत्तम राजर्षयश्च तत्रासन् द्रष्टुं भरतपुङ्गवम् पर्वतो नारदो धाम्यो भगवान् बादरायणः बृहदश्वो सशिष्यो रेणुकासुतः वसिष्ठ इन्द्र प्रमदस्त्रितो गृत्समदोषितः कक्षीवान् गौतमो त्रिश्च कौशिकोऽथ सुदर्शनः अन्ये च मुनयो ब्रह्मन् ब्रह्मरातादयो मलाः शिष्यैरुपेता जग्मुक् कश्यपाङ्गिरसादयः तान् समेतान् महाभागान् उपलभ्य वसूतमः पूजयामास धर्मज्ञो देशकालविभागवित् कृष्णै च तत्प्रभावज्ञ आसीनै जगदीश्वरम् हृदिस्थं पूजयामास माययोपातविग्रहम् पाण्डुपुत्रानुपासीनान् प्रश्रय प्रेम संगतान् अभ्याचष्टानुरागाश्रैरन्धीभूतेन चक्षुषा अहो कष्टमहो न्यायं यद्यूयं धर्मनन्दनाः जीवितुन्नार्हथ क्लिष्टं विप्रधर्माच्युताश्रयाः संस्थिते तीर्थे पाण्डौ पृथा बालप्रजावधूः युष्मत्कृते बहून् क्लेशान् प्राप्तातो कवती मुहुः सर्वं कालकृतं मन्ये भवतायि च यदप्रियम् सपालो यद्वशी लोको वायोरिव घनावलिहि यत्र धर्मसुतो राजा गदा पाणिर्वृकोदरः कृष्णो स्त्री गांडिवै चापम् सुहृत्कृष्णस्ततो विपत् नहि यस्य कर्हि चिद्राजन् पुमान् वेदविधित्सितम् यद्विजिज्ञासया युक्ताः मुह्यन्ति कवयोभिः तस्मादिदं दैवतन्त्रम् व्यवस्य भरतर्षभ तस्यानुविहितो नाथः नाथ पाहि प्रजा प्रभो एष वै भगवान् साक्षात् आद्यो नारायणः पुमान् मोहयन्मायया लोकं गूढश्चरति वृष्णिषु अस्यानुभावं भगवान् वेदगुह्यतमं शिवः देवर्षिर्नारदः साक्षात् भगवान् कपिलो नृप यं मन्यसे मातुलेयं प्रियं मित्रं सुहृत्तमम् अकरो सचिवं दूतं सौहृदादथ सारथिम् सर्वात्मनः समदृशो यद्वयस्यानहङ्कृतेः तत्कृतं मतिवैषम्यन् निरवद्यस्य न क्वचित् तथापि कान्तभक्तेषु पश्य भूपानुकम्पितम् यन्मे सुस्त्यजतः साक्षात् कृष्णो दर्शनमागतः भक्त्यावेश्य मनो यस्मिन् वाचा यन्नाम कीर्तयन् त्यजन् कलेवरं योगी मुच्यते कामकर्मभिः स देव देवो भगवान् प्रतीक्षतां कलेवरं यावदिदं हि नोम्यहम् प्रसन्नहासारुणलोचनोल्लसन् मुखाम्बुजो ध्यानपथश् चतुर्भुजः सूत उवाच युधिष्ठिरस्तदा कर्ण्य शयानं शरपैजरे अपृच्छद्विविधान् धर्मान् ऋषीणाय चानुशृण्वताम् पुरुषस्वभावविहितान् यथा वर्णं यथाश्रमम् वैराग्यरागोपाधिभ्याम् आम्नातो भयलक्षणान् दानधर्मान् राजधर्मान् मोक्षधर्मान् विभागशः स्त्रीधर्मान् भगवद्धर्मान् समासव्यासयोगतः धर्मार्थकाममोक्षांश्च सहोपायान् यथा मुने नानाख्यानीतिहासेषु वर्णयामास तत्त्ववित् धर्मं प्रवदतस्तस्य सकालं प्रत्युपस्थितः यो योगिनश्चन्द मृत्योर् वाञ्छितस्तूतरायणः तदोपसंवृत्य गिरसहस्रणीर्विमुक्तसङ्गं मन आदिपुरुषे कृष्णेलसत्पीतपटे चतुर्भुजे पुरस्थिते मीलितदृव्यधारयत् विशुद्धया धारणया हता शुभस्तदीक्षयैवाशुगतायुधव्यथः निवृत्त सर्वेन्द्रियवृत्तिविभ्रमस्तुष्टावजन्यं विसृजै जनार्दनम् श्रीभीष्म उवाच इति मतिरुपकल्पिता वितृष्णा भगवति सात्वतपुङ्गवे विभूमि स्वसुखमुपगते क्वचिद् विहर्तुं प्रकृतिमुपेयुषि यद्भव प्रवाहः त्रिभुवनकमनन्तमालवर्णम् रविकरगौरवराम्बरन्दधाने वपुरलककुलावृतानाब्जं विजयसखे रतिरस्तु मे नवद्या युधितुरगर्जो विधूम्रवेश्व कचलुलितश्रमवार्यलङ्कृतास्ये मम निशितशरैर्विभेद्यमानत्वचि विलसत् कवचेस्तु कृष्ण आत्मा सपदि सखिवचो निशम्य मध्ये निजपरयोर्बलयोरथन्निवेश्य स्थितवति परसैनिकायुरक्ष्णा हृतवति पार्थसखीरतिर्ममास्तु व्यवहितपृतनामुखं निरीक्ष्य स्वजनवधाद्विमुखस्य दोषबोध्या कुमति महर्दात्मवेद्ययाश चरणरतिः परमस्य तस्य मेस्तु स्वनिगममपहायमत्प्रतिज्ञा मृतमधिकर्तुमवप्लुतो रथस्थः धृतरथचरणोऽव्ययाचलद्गुर्हरिरिव हन्तुमिभङ्गतोत्तरीयः शितविशिखहतो विशीर्णदंश क्षतजपरिप्लुतातायिनो मे प्रसवमभिससारमद्वधार्थं स भवतु मे भगवान् गतिर्मुकुन्दः विजयरथकुटुम्ब आततोत्रे धृतहयरश्मिनि तच्छ्रिये क्षणीये भगवति रतिरस्तु मे यमिह निरीक्ष्य हता गता सरूपम् ललितगतिविलासवल्गुहास प्रणयनिरीक्षणकल्पितोरुमानः कृतमनुकृतवात्य उन्मदान्धा ప్రకృతిమగన్ కిల యస్య గోపవద్వః మునిగణ నృపవర్య సంకులేంతస్ సదసి యుధిష్ఠిర్ రాజసూయ ఏషాం అర్హణముపపేదైక్షణీయో మమ దృషి గోచర ఏష ఆవిరాత్మా తమి మమ హమజం శరీరభాజం హృది హృదిధిష్ఠితమాత్మకల్పితానాం ప్రతిదృశమివ నైకధార్కమేకం సమధిగతోస్మి విధూతభేదమోహః సూత ఉవాచ కృష్ణైవం భగవతి మనోవాదృష్టివృత్తిభిః ఆత్మన్యాత్మానమావేశ్య సోంతశ్వాస ఉపారమత్ సంపద్యమానమాజ్ఞాయ భీష్మం బ్రహ్మణి నిష్కలే సర్వే బభూస్తే తూష్ణీ వయాంసీవ దినాద్యై తత్ర దుందుభయోని దుర్ దేవ మానవ వాదితాః శశౌ సుసాధవో రాజ్ఞాం ఖాద్పేతు పుష్పవృష్టయః తస్య నిర్హరణాదీని సంపరే తస్య భార్గవ యుధిష్ఠిర కారయిత్వా ముహూర్తం దుఃఖితోభవత్ తుష్టువుర్మునయోరుష్టాత్ కృష్ణం తద్గుహ్య నామభిః తతస్తే కృష్ణ హృదయా స్వాశ్రమాన్ ప్రయయుః పునః తతో యుధిష్ఠిరో గత్వా సహ కృష్ణో గజాహ్వయం పితరం సాంత్వయామాస గాంధారీ చ తపస్వినీ పిత్రా చానుమతో రాజా వాసుదేవానుమోదితః చకార రాజ్యం ధర్మేణ పితృపైతామహం విభుః ఇతి శ్రీమద్భాగవతే మహాపురాణే పారమహంస్యాం సంహితాయాం ప్రథమస్కంధే యుధిష్ఠిర రాజ్య ప్రలంభో నామ నవమోధ్యాయః ఓం శ్రీ కృష్ణాయ